तस्य मद्भक्तिवतमादयध्वन् तृप्तायात पतिभिर्ते भयानैः। सुवतु सर्वदा सविता
अथर्वेदे विष्णुसूक्तम्
विचक्रमे त्रेधानि दधे पदम्।